वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽसि मुनित्रयम् इति माहेश्वराणि सूत्राणि. अस्तु, इदानीं वयं समासम् इति विषयं पठन्तः स्म. अत्र समासविषये एव अविभवः इति समासः अस्ति, अन्तर्भेदः अस्ति समासे, तस्मिन् विषये स्मः इदानीम्. अत्र प्रक्रिया कथं भवति इति किञ्चित् वदामि, तदनन्तरं सूत्राणाम् अवलोकनं कुर्मः, तदनन्तरं प्रत्येक प्रक्रियां उदाहरणस्वीकृत्य प्रत्येकम् उदाहरणं स्वीकृत्य प्रक्रियां कुर्मः. अस्तु, इदानीं अविभावसमासः सामान्यतया षोडशेषु अर्थेषु भवति. अव्ययं विभक्तिसमीपसंवृद्धिवृद्ध्यर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भाव पश्चाद्यर्था आनुपूर्वयोगपद्य सादृशसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रेण षोडशेषु अर्थेषु अविभावस्य प्रसक्तिः भवति इति सूत्रं वदति, इदं सूत्रं वदति. श्रूयते खलु सर्वै? इदानीम् एतत् सर्वं किञ्चित् अस्माभिः पूर्वमेव अधीतं, किञ्चित् पुनस्मारणार्थमेव वदामि इति. इदानीम् उदाहरणं स्वीकुर्मः. अदि नदी, नद्याम् इति, नद्याम् इति पदं स्वीकुर्मः, नद्याम् इति पदं स्वीकुर्मश्चेत् तत्र अविभावसमासः भवति वा इति वयं पश्येम. अत्र नद्याम् इति लौकिकविग्रहवाक्यम् इति अस्ति. यदा वयं समासं कुर्मः, प्रथमतया वयं किं करणीयम्? अलौकिकविग्रहवाक्यस्य निर्माणं करणीयम्. अलौकिकविग्रहवाक्यम् इत्युक्ते प्रातिपदिकं स्वीकुर्मः, प्रत्ययं स्वीकुर्मः, प्रातिपदिकात् प्रत्ययं स्वीकुर्मः, तदेव तदा अस्माकं अलौकिकविग्रहवाक्यं भवति. यत्किमपि पदद्वयोः प्रातिपदिकं स्वीकुर्मः, तदनन्तरं इदानीं प्रत्ययमपि योजयित्वा अलौकिकविग्रहवाक्यं निर्माणं कुर्मः. इदानीं नद्याम् इति अस्ति, नदी इति प्रातिपदिकम्, अत्र नदी इति प्रातिपदिकं, नी इति तत्र प्रत्ययः, सुवजसमोक्षस् इति दीर्घं सूत्रमस्ति, तत्र नी इति सप्तम्यर्थे प्रथम सप्तमी विभक्तौ एकवचनप्रत्ययः अस्ति. एकविंशति प्रत्ययः सन्ति तस्मिन् सूत्रे, नी इति अन्यतमः प्रत्ययः अस्ति. तदा नदी, नी, योग, इदानीं अस्माकं विषयः अस्ति नद्याम् इति अस्ति खलु, तत्र अव्ययं योजयितुं शक्नुमः वा इति प्रश्नः वदति. एकनिमिषं भगिनि, एकनिमिषम्. नद्याम् इति पदं स्वीकुर्मश्चेत् तत्र अविभावसमासः भवितुमर्हति वा इति द्रष्टव्यं. यदा नद्याः इति पदं स्वीकुर्मश्चेत् तत्र अविभावसमासः भवति वा इति प्रश्नः उदयति. न, अव्ययम् इति कदा भवति इत्युक्ते सप्तम्यर्थे एव अव्ययं भवितुम् अर्हति. अन्यविभक्तेषु विभक्तिषु न भवितुम् अर्हति. इत्यतः एव अस्माकम् अव्ययविभक्तिसमीपे इति दीर्घसूत्रे विभक्ति इति पदस्य सप्तमी अर्थः सप्तम्यर्थे एव अन्येषु विभक्तिषु न भवितुम् अर्हति इत्यतः इदानीं नदी नि अधि इति अव्ययपदं स्वीकुर्मः. तदेव तदा अस्माकं अलौकिकविग्रहवाक्यस्य निर्माणं पूर्णं भवति. इदानीं समासविषये प्रथमतया अस्माकं स्वीकरणीयसूत्रमस्ति प्राकडारात् समासः. एतत् सूत्रं किं वदति इत्युक्ते अत्र समासः इति संज्ञा अलौकिकविग्रहे ये यानि पदानि सन्ति तेषां समाससंज्ञा विधीयते अनेन सूत्रेण. तदनन्तरं किं भवति अव्ययम् अस्ति इदानीम् इत्यतः तत्र अव्ययीभावसमासः भवति. विशिष्ट समासकार्यं करणीयम् अत्यतः अव्ययीभावः इति अधिकारसूत्रम् अत्र प्रवर्तते. इदं अयं समासः अव्ययीभावसमासः इति अनेन सूत्रेण विधीयते. तदनन्तरं किं भवति अधि इति अव्ययं समर्थेन सुबन्तेन समस्यते. समर्थेन सुबन्तेन समस्यते इति सामान्यतया वदामश्चेत् सहसुपा इति सूत्रेण भवति. अत्र अस्माकं विशिष्टसूत्रम् अस्ति अव्ययं विभक्तिसमीपसं संवृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आणुपर्व्य योगपद्य सादृशसम्पत्ति साकल्यान्तवचनेषु इति सूत्रमस्ति. तत् किं भवति किं वदति अव्ययं पदं समर्थेन सुबन्तेन समस्यते इति. इदानीम् अस्माकम् अलौकिकविग्रहवाक्ये नदी इति सुबन्तम् अस्ति. किमर्थं सुबन्तमस्ति तस्मात् परम् अत्र नी इति सुप्रत्यये अस्ति ततः तद् सुबन्तम्. अव्ययम् अधि इति अव्ययम् अस्ति. इदानीम् अधि इति अव्ययपदं समर्थेन सुबन्तेन समस्यते इति भवति. तदा तत्र अव्ययीभावसमासः भवितुम् अर्हति इत्यर्थः. इदानीं इदानीं किं भवति कृत्तद्धितसमासाश्च इति सूत्रमस्ति. अनेन सूत्रेण किं भवति समासे विद्यमानानि पदानि प्रातिपदिकसंज्ञां प्राप्नोति. इदानीं नदी अस्ति अधि अस्ति. तत्र नदी इति शब्दस्य अपि प्रातिपदिकसंज्ञा भवति. अधि इति अव्ययस्य अपि प्रातिपदिकसंज्ञा भवति. तद् वयं जानीमः तत् सर्वेषु अव्ययेषु सुबन्तपदम् अस्ति तत्तु लुक् लुक् भवति इत्यतः वयं सुप् प्रत्ययं न पश्येम तत्र. यतः नदी अपि प्रातिपदिकं संज्ञां प्राप्नोति अधि अपि प्रातिपदिकसंज्ञां प्राप्नोति. इदानीं पदम् इति संज्ञा अपि ते प्रथमतया संज्ञानां एतत् अलौकिकवाक्ये बहवः संज्ञा विधीयते. अत्र संज्ञाः विधीयन्ते. प्रथमसंज्ञा अस्ति प्रातिपदिकसंज्ञा. तदनन्तरं द्वितीयसंज्ञा अस्ति पदसंज्ञा. सुप्तिङन्तम् इति सुप्तिङन्तं पदं सूत्रम् अस्ति. अनेन सूत्रेण किं भवति ये सुबन्तेन यत् प्रातिपदिकम् अस्ति तदा तत्र पदं संज्ञा भवति. नदी इत्यस्य पदसंज्ञा भवति. अधि इति अव्ययस्यापि पदसंज्ञा भवति सुप्तिगन्तं पदम् इति सूत्रेण. तदनन्तरं किं भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण किं भवति सुप् विभक्तिप्रत्ययाणां लोपः भवति. तदा इदानीं नदी योगः अधि एव अवशिष्यते. इदानीं किं करणीयम् इदानीं संज्ञा अस्माकं पदसंज्ञा अस्ति प्रातिपदिकसंज्ञा अस्ति अव्ययीभावसमासः इति कृत्वा अव्ययसंज्ञा अपि भवति. अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा अपि भवति. इदानीं अव्ययभावसमासः नपुंसके एव भवति, तदा नपुंसकलिङ्गसंज्ञा अपि भवति. इदानीं सर्वेषां संज्ञानां कार्यं समाप्तं, तादृशमपि वयं स्वीकुर्मः. इदानीं नदी योगः अधि अति अधि इति अस्ति. समासकार्ये किं करणीयं, यत् पूर्वपदं भवति यत् उत्तरपदं भवति इति निर्णयं करणीयं समासे. इदानीं कथं निर्णयं कुर्मः इत्युक्ते, शास्त्रे सूत्रे, शास्त्रे इत्युक्ते सूत्रे यत् पदं प्रथमया प्रथमा विभक्त्या निर्दिष्टम् अस्ति तस्
तद् महोदय क्षम्यताम्, अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं कार्यं न करोति वा अत्र प्रत्ययलोपे?
अस्तु भगिनि, तत्सर्वं किं भवति, प्रत्ययलोपे प्रत्ययलक्षणम् इति किं वदति इत्युक्ते, यद्यपि प्रत्ययः लुप्तः भवति, यद्यपि प्रत्ययः लुप्तः भवति तस्य प्रभावः भवति एव. यदा नदी
तत् कार्यं कृत्वा एव कृत्वा एव
अंशानाम् एव अहम् इदानीं वदामि. तदेव तत्सर्वम् अस्ति,
तत्सर्वं
तत्सर्वं कार्यं करोति एव, तद्विना किमपि न भवितुमर्हति. यदा यदा प्रत्ययलोपे प्रत्ययरक्षणं न कार्यं करोति तदा पदसंज्ञा एव न तिष्ठति. नदी अपि च न अधि इति अव्ययस्य पदसंज्ञा न भवति, पदसंज्ञा न भवति, समासः एव न भवति.
अस्तु अस्तु, धन्यवादः, क्षम्यतां.
चिन्ता मास्तु. समासशास्त्रे प्रथमनिर्दिष्टं समास उपसर्जनम् इति वदति. इदानीं अव्ययं विभक्तिसमीप इति एकं सूत्रम् अस्ति खलु, तत्र अव्ययम् इति पदं प्रथमाविभक्त्याम् अस्ति इत्यतः उपसर्जनं प्राप्नोति. तद् तेन द्वारा एव अस्माकम् अलौकिकविग्रहवाक्ये इदानीं अस्माकं समासवाक्ये नदीयोगः अधि इत्यत्र अधि इत्येव अव्ययम्, अव्ययम् अधि अव्ययम् इत्यतः तस्यापि तत्र उपसर्जनसंज्ञा भवति. इदानीम् उपसर्जनं पूर्वम्, उपसर्जनं पूर्वम् इत्युक्ते उपसर्जनं यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्य पूर्वप्रयोगः भवति, पूर्वप्रयोगः अथवा पूर्वनिपातः इति शास्त्रे वदन्ति. पूर्वप्रयोगः भवति तदा किं भवति, अधियोगः नदी इति भवति, अधियोगः नदी इति भवति. इदानीं वयं जानीमः अविभावसमासस्य अव्ययसंज्ञा अस्ति अविभावश्च इति सूत्रेण. तदनन्तरम् अनन्तरं द्वितीयाध्याये अविभावश्च इति भिन्नं सूत्रम् अस्ति, तेन सूत्रेण किं भवति, तस्य नपुंसकलिङ्गसंज्ञा अपि भवति. नपुंसकलिङ्गसंज्ञा भवति कारणेन एव अनन्तरं द्वितीयं एकसूत्रम् अस्ति प्रथमाध्याये, ह्रस्वो नपुंसके प्रातिपदिकयोः इति, ह्रस्वः नपुंसके नपुंसकलिङ्गे. इदानीं नपुंसकलिङ्गसंज्ञा अस्ति समासपदस्य पदानां समूहे, पदसमूहस्य नपुंसकलिङ्गप्रातिपदि लिङ्गः अस्ति, नपुंसकलिङ्गसंज्ञा अस्ति इत्यतः ह्रस्वः नपुंसके प्रातिपदिकस्य, प्रातिपदिकस्य इत्युक्ते अत्र अधिनदि इति नूतनप्रातिपदिकम् अस्ति, समासप्रातिपदिकं समासप्रातिपदिकं समस्तपदस्य प्रातिपदिकम् इति स्वीकुर्मः. तदा यत्र अन्ते दीर्घः अस्ति तत्र ह्रस्वः भवति इति इदं सूत्रं वदति. इत्यतः इदानीं किं भवति, अधि योगः नदी इत्यत्र अधि नदी इति ह्रस्वः आदेशरूपेण आयाति, ह्रस्वादेशः भवति. इदानीं किं भवति, अस्माकं सामान्यतया यदा प्रातिपदिकम् अस्ति तस्मात् सुप्यविभक्तिः योजनीयः ज्ञाप्रातिपदिकात् इति सूत्रेण किं कार्यं भवति, तत्र सुप्विभक्तिः योजयामः. सुयोजसम्मोक्षस् इति सूत्रम् अस्ति, तत्र एकः प्रत्ययः स्वीकुर्मः, किमपि प्रत्ययः स्वीकुर्मः, तत् स्वीकृत्य किं कुर्मः, तत्र प्रातिपदिकात् योजयामः. इदानीम् अम् इति प्रत्ययं स्वीकुर्मश्चेत् अदि योगः नदि योग अम् इति भवति. सर्वाणि प्रत्ययानि अत्र नायाति, केवलम् एकः एव प्रत्ययः स्वीकरणीयः. विवक्षा अनुगुणम् एकः प्रत्ययः स्वीकरणीयः. तदा किं भवति, अधियोगः नदीयोगः अम् इति अस्ति. इदानीम् अस्माकम् अधियोगः नदी इति समासपदम् अस्ति, तद् सुप्तिगन्धं पदम् इति कारणेन तत् समासपदम् इति वदामः. सुप्प्रत्यय अन्ते अस्ति खलु, तज्ञः पदं पदसंज्ञा अस्ति इत्यतः तत्र समासपदम् इति वदामः. तत्र किं भवति, सुप् इत्यस्य अभिभावसमासः इति कारणेन अव्ययतापः अव्ययम् अस्ति, अव्ययसंज्ञा अस्ति इत्यतः सुप्प्रत्ययस्य लुक् भवति, सुप्प्रत्ययस्य लुक् भवति अतः लोपः भवति, अपगच्छति सः प्रत्ययः अपगच्छति. इदानीं किं भवति, अदि नदी इति तिष्ठति. अस्माकम् इदानीम् अदन्तम् अस्ति इत्यतः, अदन्तम् अस्ति इत्यतः न अव्ययात् अतोम्यपञ्चम्याः इति सूत्रं न प्रवर्तते. तदनन्तरं तृतीयासप्तम्योर् बहुलम् इति अपि सूत्रं न प्रवर्तते. केवलम् अदन्तानां विषये एव, अदन्तानाम् अङ्गानाम् अदन्त अङ्गं नास्ति इत्यतः द्वाभ्यां सूत्राभ्यां प्रवृत्तिः न भवति, द्वयोः सूत्रयोः प्रवृत्तिः न भवति. क्षम्यतां, तदा अदि नदी इति समस्तपदम् अथवा समास कृत्वा समस्तपदं भवति अदि नदी. अस्तु, अत्र संशयः अस्ति वा अदन्तान्तानां विषये? यदा वयं अभ्यासं कुर्मः तस्मिन् सन्दर्भे पश्यामः. अस्तु, इदानीं सूत्राणाम् अवगमनं अत्यन्तम् आवश्यकम् इत्यतः यथा मूलवर्गे सर्वेषां सूत्राणां पठनम् अभवत् तादृशं वयमपि इदानीं कुर्मः. एकैकः एकैकसूत्रं स्वीकृत्य तस्य विवरणं किञ्चित् कुर्मः. करोतु इति स्थापय अहं वदामि, नाम वदामि, तदा कृपया सूत्रस्य अर्थः कः इति किञ्चित् वदन्तु. अस्तु, सरस्वती भगिनी, सुमन् भगिनी, भवती आरम्भं करोति वा? अकृत्तद्वितसमासाश्च इति सूत्रं, तत्र अभ्यासः इति अस्ति खलु, तस्मात् पूर्वं सूत्राणाम् उल्लेखः कृतः अस्ति.
कृतसमासः च
प्रथमं पठतु, तदनन्तरं परिवर्तिसहितसूत्रम् एकनिमिषं भगिनि, एकनिमिषं, यदा अस्माकं पुस्तकम् अस्ति चेत् तदपि स्वीकुर्वन्तु कृपया. स्मृतः सर्, अहमपि न आनीतवान्, इदानीमेव स्वीकरोमि, तद् उपयोगाय भवति. अस्तु भगिनि,
एकनिमिषम् उद्घाटयामि. पुस्तकम् अस्ति, उद्घाटयामि.
कृत्तद्विसमासाश्च इति सूत्रं पठतु.
अस्तु, कृत्तद्विसमासाः च कृदन्ताः तदिताः समासाः च अपि प्रातिपदिकसंज्ञकाः. कृच् च तदितः च समासः च कृत्तदितसमासाः इतरे कृत्तदितसमासः प्रथमान्तं च अव्ययं पदं द्विपदं सूत्रं अस्तु. अनुवृत्ति अन्यत्र तु किमपि नास्ति, अनुवृत्तिसहितसूत्रम् अस्ति. अर्थवन्तः कृत् अधिकसमासः च प्रातिपदिकः.
अस्तु भगिनि, तत्र कृत् अधिकसमासश्च इति सूत्रं प्रथमाध्याये द्वितीयपादे भवति. सङ्ख्या चत्वारिंशत् इति अस्ति. तत्र प्रथमस्तम्भे अन्तिमसूत्रमस्ति कृत्तद्धितसमासाश्च इति सूत्रमस्ति. तस्मात् पूर्वमेव अर्थवदधातु अप्रत्यय प्रातिपदिकम् इति सूत्रम् अस्ति. इदानीं शीर्षकं पश्यामश्चेत् प्रातिपदिकसंज्ञा, प्रातिपदिकसंज्ञा विधायकसूत्रम् अस्ति अर्थवदधातु अप्रत्ययः, तदनन्तरं कृत्तद्धितसमासाश्च. द्वाभ्यां सूत्राभ्यां प्रातिपदिकसंज्ञा विधानं भवति इति अवगच्छामि.
इत्युक्ते कृदन्ताः तद्धिताः समासाः च ते सर्वे तानि सर्वाणि प्रातिपदिकानि भवन्ति इति.
कृत्तदित अस्य पदानां संज्ञा एव भवति, संज्ञा एव विधायते विधीयते. इत्युक्ते वस्तु अस्ति, वस्तु नामकरणं किमपि इदानीं लेखनी अस्ति, लेखनी इति वस्तु अस्ति, तस्य नामकरणं लेखनी इति वयं कुर्मः खलु. तादृशमेव नामधेयम् एव, केवलं नामधेयम्. प्रातिपदिक अपि संज्ञा अस्ति,
किन्तु लेखनी प्रातिपदिकम् अपि खलु. अतः अत्र तदेव अस्ति खलु, कृदन्त तद्धित समासः च ते सर्वे ते सर्वाणि प्रातिपदिकानि भवन्ति.
न भगिनि, तत्र कृदन्ताः तद्धितान्तः समासान्ताः इत्युक्ते अत्र कृत्प्रत्ययान्तः कृत्प्रत्यय योजयित्वा प्रकृतितः कृत्प्रत्यय योजयित्वा वयं कृदन्तं स्वीकुर्मः. कृदन्तं भवति, निर्माणं भवति, तस्य एका संज्ञा विधीयते, प्रातिपदिकसंज्ञा विधीयते. प्रातिपदिकम् इति वयं वदामः शास्त्रीयरीत्या, प्रातिपदिकम् इत्येव वदामः तु शास्त्रीयरीत्या वयं चर्चां कुर्मश्चेत् तस्य प्रातिपदिकसंज्ञा इति एव वदामः. प्रातिपदिकसंज्ञकाः इति पदम् अस्ति खलु, इत्युक्ते तेषां प्रातिपदिकसंज्ञा अस्ति इत्यर्थः.
आं समासस्य अपि खलु,
तादृशम् आं समासस्य अपि तादृश अस्ति. समीचीनं भगिनि. अत्र मुख्यविषयः अहं वक्तुम् इच्छामि इत्युक्ते अस्माकं पुस्तके प्रकरणानि सन्ति, यस्मिन् प्रकरणे सूत्राणि आगच्छन्ति इति किञ्चित् अवगच्छामश्चेत् तदा अस्माकम् अवगमनं सम्यक् भवति. इदानीं द्वितीयं सूत्रमस्ति, सरस्वती भगिनी सुपोधातुप्रातिपदिकयोः इति सूत्रं पठति वा?
आं महोदय, सुपोधातुप्रातिपदिकयोः द्वितीय अध्याये चतुर्थपादे एकसप्तति सूत्रमस्ति, धातोः च प्रातिपदिकस्य च अव्ययरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति. अन्यदपि पठतु वा केवलम् अनुवृत्तिसहितसूत्रं अस्तु. तर्हि यदि कश्चन सुप्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अनुवृत्तिसहितसूत्रमस्ति, धातु प्रातिपदिकयोः सुपः लुक् अस्तु. तर्हि अत्र अस्ति यत् धातोः च प्रातिपदिकस्य च यत् यत् सुप् प्रत्ययः अस्ति तस्य लुक् भवति अनेन सूत्रेण, सुपो धातु प्रतिपदिकयोः प्रातिपदिकयोः सूत्रेण लुक् भवति. अनुवृत्तिसहितसूत्रमपि तदेव अस्ति, धातु प्रातिपदिकयोः सुप्तः लुक्
लुक् भवति. अस्तु, इदानीं द्विपञ्चाशत् इति पुटं स्वीकुर्मश्चेत् पुस्तके तत्र पश्यतु अत्र सुपो धातु प्रातिपदिकयोः इति सूत्रमस्ति. एकनिमिषं सुपो धातु प्रातिपदिक द्वितीयस्तम्भे मध्ये अस्ति सुपो धातु प्रातिपदिकयोः. इदं सूत्रं कुत्र आयाति? लुक् प्रकरणम् इति अस्ति. लुक् प्रकरणे सर्वाणि सूत्राणि ये यैः लुक् भवति तत् सर्वाणि सूत्राणि दत्तानि सन्ति. अत्र सुपो धातु प्रातिपदिकयोः इति सूत्रेण अपि लुक् भवति इति वदन्ति. अस्तु, अत्र एव अविभावश्च इति अव्ययतापसुपः इति सूत्रम् आयाति अस्मिन् अधिकरणे एव. अस्तु अस्तु भगिनि, धन्यवादः. ललिता भगिनि,
वदामि. हा, सुप्तिदन्तं पदं प्रथमाध्याये चतुर्थपादे चतुर्दश सुबन्तं च तिदन्तं च पदसंज्ञकौ भवतः इत्युक्ते सुबन्तानां तिरन्तानां च पदसंज्ञा भवति. सुप्तिरन्तं प्रथमान्तं पदं प्रथमान्तम् इत्युक्ते यस्य सुबन्तानां तिरन्तानां प्रत्ययानां पदसंज्ञक भवति इति अवगतम्. सुबन्तानां सुप्रत्यया अपि च तिङ् तिरन्तं प्रत्यया अपि पदसंज्ञा भवितुम् अर्हति.
प्रत्ययानां संज्ञा नास्ति, प्रत्ययानां संज्ञा नास्ति, प्रातिपदिकमस्ति खलु. सुप्तिङन्तं पदम् अन्तम् इत्युक्ते अन्ते, सुप्तिङन्तं पदं यस्य पदस्य अन्ते सुप् प्रत्ययः अस्ति अथवा तिङ् प्रत्ययः अस्ति तदा तत्र प्रातिपदिकरूपेण यत् अस्ति तस्य अथवा समूहः अस्ति खलु प्रातिपदिक अपि च किं प्रत्ययः समूहस्य तत्र पदसंज्ञा भवति, न तु तत्र प्रत्ययः प्रातिपदिकम् अस्ति. प्रातिपदिकं प्रत्ययः द्वयोः एव तत्र पदं संज्ञा विधीयते. अनन्तरं तत्कारणेन सुबन्तानां सुबन्तानां कृते यस्य अर्थे सुप् सुप् अस्ति तत्कारणेन प्रातिपदिकं स्वीकर्तुम् अपि च सुप् अपि स्वीकरणीयं सुबन्तानां तिङन्तानाम्. अस्तु भगिनि, तत्र प्रथमाध्ये चतुर्थपादे अस्ति, प्रथमाध्ये चतुर्थपादे तत्र पश्यतु
पदम्
पुस्तके त्रिचत्वारिंशत्तमे पुटे अस्ति सुप्तिङन्तं पदं मध्ये अस्ति पदसंज्ञा इति शीर्षकमस्ति. पदसंज्ञाविधायकसूत्रेषु अन्यतमं सूत्रमस्ति सुप्तिङन्तपदम्. अन्यसूत्राणि अपि पदसंज्ञा विधीयते, अन्यैः सूत्रे अपि पदसंज्ञा विधीयते. सुप्तिङन्तमिति सुप्तिङन्तपदमिति अन्यतमं सूत्रम् अस्ति तत्र इति अवगन्तुं शक्यते. अव्ययीभावश्च अरविन्द महोदय,
आं महोदय, अव्ययात् आप्सुपः अव्ययात् परस्य आप् प्रत्ययानां सुप्रत्ययानां च लुप् भवति. अनुवृत्तिसहितसूत्रम् अव्ययात् आप् सुपः लुक् अव्ययपद अव्ययशब्दपरस्य प्रत्ययानां सुप्रत्यय आप् प्रत्ययानाम् एवं सुप्रत्ययानां च लुप् भवति नित्यरूपेण.
अस्तु, अव्ययात् अव्ययात् आप् प्रत्ययानां सुप्रत्ययानां लुक् भवति. अव्ययात् आप् सुपः इति सूत्रं द्वि पञ्चाशत्तमे पुटे द्वितीयस्तम्भे अन्ते आयाति. अन्ते तत्र अव्ययात् आप् सुपः इति सूत्रं लुक् प्रकरणे अस्ति इति अवगन्तुं शक्नुमः. अव्ययात् आप् सुपः
नित्यरूपेण भवति महोदय.
अव्ययात् निश्चयेन सुप्रत्ययस्य लुक् भवति. अस्तु,
धन्यवादः.
विनय् महोदय, विनय् महोदय.
आं महोदय,
अग्रिमं सूत्रं
प्रत्ययलोपे प्रत्ययलक्षणं प्रथम अध्याय प्रथमपादः द्वयषष्टिः सूत्रनामः संख्या प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्.
अन्तिमवाक्यं
प्रत्ययः यदि लुप्तवान् तर्हि
अन्तिमवाक्यं पठतु महोदय.
प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहि समासः सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. यदि अहं अवगच्छामि अवगच्छामि प्रत्ययस्य प्रत्ययः लुप्तवान् परन्तु प्रत्ययस्य लक्षणम् अक्षुण्णः स्थितः अतः यदि प्रत्ययस्य लक्षणम् अस्ति तर्हि लक्षणकारणेन कार्यमपि भवितव्यम्.
अस्तु महोदय, सत्यं. यद्यपि प्रत्ययस्य लोपः भवति तदपि तस्य प्रभावः निश्चयेन भवति इत्यर्थः. सत्यं महोदय, उत्तमम्. अष्टत्रिंशत् इति पुटसङ्ख्या अस्ति तत्र पुस्तके. तत्र लुक् द्वितीयस्तम्भे अत्र पश्यतु लोपसंज्ञा अदर्शनं लोपः, तदनन्तरं लुक्ष्लु लुप् संज्ञा प्रत्ययस्य लुक्ष्लु लोपः, तदनन्तरं परिभाषासूत्रे प्रत्ययलोपे प्रत्ययलक्षणम् इति एकत्र तत्र न लोपताङ्गस्य एकत्र लोप लुक् इति विषयाणां सूत्राणि सन्ति एकस्मिन् किम् अध्याये एव सन्ति सूत्राणि. प्रकरणरूपेण निर्माणं कृतवान् पाणिनि इत्यतः अस्माकं प्रकरणे कस्मिन् प्रकरणे सूत्राणि सन्ति इति अवगमनं निश्चयेन भवेत्. तदनन्तरं एकनिमिषम् अहं रेकार्डिङ्ग् कृतवान् वा न संशयः भवति. उषा भगिनी
श्रूयते वा महोदय? ओके, अव्ययी भावश्च द्वितीय अध्याये चतुर्थपाते अष्टादश ओके प्रथमाध्याये प्रथमपादे प्रथमाध्याये प्रथमपादे द्वितीय चतुर्थ 41 ओके अव्ययी भावसमास महोदय अव्ययी भावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति अनुवृत्तिसहितसूत्रम् अव्ययी भावः च अव्ययम् अव्ययी भावसमासः अव्ययं भवति अव्ययम्
अत्र अव्ययीभावः इति समासः कुर्मः तदा तत्र समस्तपदस्य अव्ययसंज्ञा भवति अव्ययं भवति
स्वरातिनिपातम् अव्ययम् इति सूत्रेण अव्ययी अव्ययं अव्ययं कंसस्य अनुवृत्ति
अनुवृत्तिः अस्ति तदा अव्ययीभावसमासस्य अव्ययसंज्ञा भवति इति इदं सूत्रं वदति सूत्रं कुत्र अस्ति इत्युक्ते षट् संहिताम् अष्टत्रिंशत् तमे पुटे तत्र प्रथमस्तम्भे मध्ये अव्ययीभावश्च इति सूत्रम् अस्ति कस्मिन् अधिकारे अस्ति अव्ययसंज्ञा इति अधिकारः अस्ति अव्ययसंज्ञा इति अधिकारः अस्ति तत्र अन्यतमं सूत्रम् अस्ति अव्ययीभावश्च तस्मिन् अधिकारे एव प्रथमं सूत्रमस्ति स्वरादिनिपातम् अव्ययं तस्मात् एव अनुवृत्तिरूपेण अव्ययम् आयाति अव्ययम् इति पदम् आयाति सूर्यकुमारी भगिनी अव्ययभावश्च इति प्रथमं लिखितमस्ति तत् पठतु भगिनि
अव्ययीभावश्च द्वितीय अध्याये पञ्चमपादे
न न द्वितीय अध्याये चतुर्थपादे
सारी चतुर्थपादे
अष्टादश अष्टादश
लास्ट् पेज् महोदय
न न एवं वा अस्तु न प्राप्तवान् प्राप्तं वा
कविभावच
अन्यं पृच्छामि श्रीधरन् महोदय श्रीधरन् महोदय
राजि किल राजी श्रीधरन्
श्रीधरन्
अहमेव मम नाम एव राजी श्रीधरन् अव्ययीभावश्च इति सूत्रमस्ति द्वितीय अध्याये चतुर्थपादे अष्टादशसूत्रम् अव्ययीभावसमासः नपुंसकलिङ्गे भवति अनुवृत्तिसहितसूत्रम् अव्ययीभावः च नपुंसकम् एतत् सूत्रं वदति एतत् समासः नपुंसकलिङ्गे भवति इति
इत्युक्ते एकपञ्चाशत् तमे पुटे प्रथमस्तम्भे किञ्चित् मध्ये एव अस्ति द्विगुद्वन्द्व अव्ययीभावानां लिङ्गनिर्णयः इति शीर्षकम् अस्ति. तत्र प्रथमसूत्रमस्ति स नपुंसकं, तदनन्तरम् अविभावश्च. इदानीम् अविभावश्च इति सूत्रं पश्यामश्चेत् किमपि अवगमनं न भवति. तत्र पूर्वसूत्रं वयं पश्यामश्चेत् स नपुंसकम्. इदानीं नपुंसकम् इति पदम् अनुवृत्तिरूपेण आयाति. अविभावश्च नपुंसकम् इति अवगन्तव्यम्. दर्शना भगिनी,
महोदय, ह्रस्वो नपुंसक नपुंसके प्रतिपदिक प्रतिपादिकस्य प्रातिपदिकस्य क्षम्यतां प्रातिपदिकस्य ह्रस्वो नपुंसके प्रातिपदिकस्य प्रथम अध्याये द्वितीयपादे सप्तचत्वारिंशततम श्लोकं सूत्रं नपुंस अनुसूत्रं नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य ह्रस्वत्वं स्यात्. ह्रस्वः प्रथमान्तं नपुंसके सप्तम्यन्तं प्रातिपदिकस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं अचश्च इत्यनेन अचः एव ह्रस्वत्वम् अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव ह्रस्वत्वं न तु प्रातिपदिकस्य अनुवृत्तिसहितसूत्रं नपुंसकलिङ्गे अचः प्रातिपदिकस्य ह्रस्वः. तर्हि अत्र वदत् सूत्रं वदति यत् प्रातिपदिकस्य अन्ते यत् यः अच अच् वर्णः अस्ति तस्य ह्रस्वस्वर भवनीयम् इति.
अच्वर्णस्य ह्रस्वादेशः भवति. अस्तु, किमपि व्यञ्जनवर्णः अस्ति चेत् किं भवति?
न भवति, किमपि न भवति.
किमर्थं न भवति?
यतोहि अत्र अचश्च इति अचः एव ह्रस्वत्वम् इति लिखितम् अस्ति.
स्वराणामेव ह्रस्व आदेशः भवितुमर्हति. व्यञ्जनानां स्वराणामेव व्यञ्जनानां न भवितुमर्हति.
न भवति.
नपुंसकलिङ्गे अचः इति अनुवृत्तिरूपेण अस्ति इत्यतः अत्र स्वराणां विषये एव अस्ति. तत्त्वरिक्षतमे पुटे द्वितीयस्तम्भे प्रथमस्ति ह्रस्वनपुंसके प्रातिपदिकस्य ह्रस्ववृद्धिः. यत्र यत्र ह्रस्ववृद्धिः भवति इति अहं चिन्तयामि प्रायः जनरलि प्रायः कुत्र ह्रस्ववृद्धिः भवति इति अस्मिन् अध्याये उक्तमस्ति. ह्रस्वविधि इति अधिकारः नास्ति, शीर्षकम् अस्ति. तत्र ह्रस्वो नपुंसके प्रातिपदिकस्य गोस्त्रियोर्वृत्तसर्जनस्य इति सूत्रद्वयम् अस्ति. ह्रस्वो नपुंसके प्रातिपदिकस्य सूत्रेण अपि ह्रस्वविधिः भवति. समानरीत्या गोस्त्रियोर् उपसर्जनस्य इति तेन अपि ह्रस्वविधिः भवति इति अवगन्तव्यम्. इदानीं अभ्यासं कुर्मः.
महोदय, द्वितीयं सूत्रं किं?
गोस्त्रियोरुपसर्जनस्य इति अस्ति खलु भगिनि. तत्र शीर्षकं पश्यति चेत् ह्रस्वविधिः अस्ति. यत्र यत्र ह्रस्वविधिः भवति इति अवगन्तुं शक्यते. प्रथममस्ति ह्रस्वनपुंसके प्रातिपदिकस्य
पुस्तके वा?
पुस्तके एव, पुस्तके. तदनन्तरं द्वितीयमस्ति गोस्त्रियोरुपसर्जनस्य. उपसर्जनस्य गोस्त्रियोः ह्रस्वः भवति इति अस्माभिः अधीतमेव. यदा
तत्र
इदानीं न भगिनि, भगिन्या पूर्वम् उक्तम्, उदाहरणं किमपि न उक्तवती. भवती इदं चिन्तयामि अहं मम स्मरणे नास्ति इदानीं पठेम पूर्व अग्रे अग्रे आयाति सूत्रं
रूप गोस्त्रियोः उपसर्जनस्य तत्र स्त्री स्त्रीलिङ्गपदम् उपसर्जनं भवति चेत् तत्र ह्रस्व भवति किम्
तदेव भगिनि सत्यं तदेव
किन्तु अत्र अपि अधि अधि नदी नदी अपि स्त्रीपदम् अस्ति तत्र ह्रस्वो नपुंसकलिङ्गे प्रातिपदिकस्य कार्यं करोति वा गोस्त्रियो उपसर्जनस्य वा
भवती किं चिन्तयति तद्वत्
स्त्री अपि अस्ति खलु
किं भवति वदतु तदनन्तरं किं 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 सूत्रं प्रवर्तते इति भवती चिन्तयति ह्रस्वनपुंसके प्रातिपदिकं प्रवर्तनं करोति वा अथवा गोस्त्रीयोपसर्जनस्य इति सूत्रं प्रवर्तते वा
ओ अत्र नदी तु उपसर्जन संज्ञा न प्राप्नोति खलु अधि एव उपसर्जनम् अस्ति अस्तु
इति कारणेन तत्र ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रमेव प्रवर्तते यत्र उपसर्जने स्त्रीलिङ्गं भवति उपसर्जनं स्त्रीलिङ्गं भवति स्त्रीलिङ्गरूपेण आयाति तदा एव गोस्त्रीयोरुपसर्जनस्य
महोदय अव्ययीभावश्च इति सूत्रेण नपुंसकं प्राप्तत्वात् गोस्त्रीयोक अस्य प्रभावः नास्ति किन्तु केवलं ह्रस्व नपुंसक एव आयाति
तदपि अस्ति महोदय नपुंसक इति कारणेन ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रं प्रवर्तते तु अहं सम्यक् न जानामि अहं चिन्तयामि गोस्त्री उपसर्जनस्य इति भिन्नं सूत्रमस्ति यत्र उपसर्जनसंज्ञा उपसर्जनं पूर्वम् अस्ति खलु तदा पूर्वं स्त्रीलिङ्गपदम् आयाति चेत् तस्य अपि ह्रस्वत्वं भवति इति सूत्रं वदति
किन्तु महोदय वयं तु पठितवन्तः खलु सीतायाः पतिः तत्र सीतापतिः भवति सीता तु स्त्रीलिङ्गम् अस्ति उपसर्जनसंज्ञा अपि प्राप्नोति किन्तु सीतापति एव अस्ति न तु सीतापति
अत्र भगिनि उपसर्जनं तत्र उपसर्जनसंज्ञा सीतायाः पतिः षष्ठी
सीता एव उपसर्जनसंज्ञा प्राप्नोति यतोहि तत्तु पूर्वनिपात
भवति तत्र अहमपि पूर्णतया न जानामि सूत्रम् अहं किञ्चित् किं कुर्मः ऊहां कुर्मः ऊहां कृत्वा एतादृशं भवति इति अस्माकं चर्चाविषये एव नास्ति इदानीम् अस्माकं चर्चाविषये अस्ति रत्नपुंसके तावदेव वयं पठितवन्तः पूर्णतया ऊहामा करोतु यथा भगिनी पाठयति तस्मिन् सन्दर्भे अवगच्छामि सर्वे
अस्तु
भवान्
एव एतत् सूत्रं निर्दिष्टवान् अतः अहं पृष्टवती
अस्तु किं वक्तुम् इच्छामि इत्युक्ते
क्षम्यतां महोदय क्षम्यतां भगिनी शर्मिला अस्मि अत्र स्त्रीलिङ्ग देव नाय् स्त्रीप्रत्यय प्रत्यय स्त्रीप्रत्यय स्त्रीलिङ्ग नास्ति स्त्रीप्रत्यय निर्दिष्टम् अस्ति
अहं न जानामि स्त्रीप्रत्ययज्ञापनी किमपि वदति तदहं न जानामि अहं किं वक्तुम् इच्छामि इत्युक्ते ह्रस्वविधिः कुत्र भवति इति इदानीं शीर्षकं दृष्ट्वा ज्ञातुं शक्यते अस्माभिः पुस्तकं वयं पश्यामश्चेत् यत्र यत्र ह्रस्वविधिः भवति इति किञ्चित् अवगमनं सम्यक् न भवति, सम्यक् भवति इत्येव मम आशयः अस्ति. अस्तु, चिन्ता मास्तु. इदानीं बाणौ इति अभ्यासं कुर्मः. बाणौ इति प्रथमम् अभ्यासः अस्ति, प्रथमः अभ्यासः अस्ति, तद् कुर्मः. दर्शना भगिनी भवती आरम्भं करोति वा बाणौ इति सूत्र कथं भवति, समस्तपदं कथं भवति इति.
आरम्भं करिष्यामि. एकनिमिष महोदय. भाणौ इति उत्तरपदम् अनदन्तम् अस्ति, तर्हि वयम् इदानीं चर्चितवन्तः तद् सर्वं अप्लै कर्तुं शक्नुमः. भाणौ इति अलौकिक विग्रहवाक्यं प्रथमं सोपानम् अस्माकं. तर्हि अत्र अलौकिकविग्रहवाक्यम् अस्ति भानु युत नि युत अधि. तर्हि अग्रिमं सोपानम् अस्ति समाससंज्ञा. समाससंज्ञा विधीयते प्राक् कडारात् समासः इति सूत्रेण. विशिष्टसमासः विधीयते अव्ययीभावः इति सूत्रेण. समासस्य पदस्य निर्माणार्थं विधायकसूत्रस्य आवश्यकता अस्ति. तर्हि अस्माकं दीर्घसूत्रे अधि इति अव्ययं च भानु इति सुबन्तं समस्यते. अव्ययमपि सुबन्तं, परन्तु अव्ययीभावसमासः इत्यस्य कारणेन अहम् अव्ययम् इति लिखितमस्मि. कृत्तद्धित्तसमासाश्च इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते. अधुना विभक्तेः लोपः भवति सुपोधातिप्रातिपदिकयोः इति सूत्रेण. तर्हि अस्माकम् इदानीं वयं कुत्र स्मः? भानु 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 युत अधि. किं महोदय, क्षम्यताम्?
समीचीनं भगिनि. बाणुयोग
इति भवति भानु युत अधि इति. यदा हि सुप्रत्ययानां लोपः जायते तदा प्रश्नः उदेति यत् एतत् प्रातिपदिकमस्ति वा पदसंज्ञा अस्ति वा. सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति, अपि तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण. द्वयोः द्वे सूत्रे अपि अत्र कार्यं करोति. अव्ययात् आप् सुपः इति सूत्रेण अधिशब्दस्य परे यत् सुप् प्रत्ययः अस्ति तस्य लुक् भवति, लोपः भवति इति. इदानीं समस्तपदे अस्माकं प्रक्रियायां समस्तपदे द्वौ शब्दौ स्तः, भानि भानु अपि तु अधि. समस्तपदस्य
निर्माणं
धन्यवादः.
सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति. तदनन्तरम् अव्ययात् सुपः इति सूत्रेण किं भवति? अव्ययात् परस्य आप्रत्ययान्त सुप्रयान्त लुक् अपि भवति भवति वदति अत्र भानु योगः
लोपः अभवत् बाणु योग अधि इति अस्ति इदानीं.
बाणु योगः अधि तदनन्तरं चेत् सुप्रत्ययस्य लोपः भवति.
अभवत्
अभवत् तदनन्तरं तदनन्तरं प्रथमनिर्दिष्टे निर्दिष्टं समास उपसर्जनम् इति सूत्रेण अदि इति उपसर्जनसंज्ञा नामकरणं भवति. ततः उपसर्जनं पूर्वम् इति सूत्रेण अदि अति प्राक् आगच्छति. अदि योगः भानु
भानु
इति अस्ति. तदनन्तरम् अविभावश्च प्रथम अध्याये प्रथमपादे चतुर्विंशत्सूत्रे संज्ञा भवति अव्ययम् इति संज्ञा भवति. आं महोदय,
संज्ञा भवति का? संज्ञा का संज्ञा भवति?
अव्ययी भाव अव्ययम् इति
अव्ययम् इति संज्ञा भवति. अस्तु, वदतु भगिनि.
न महोदय, प्रथमं संज्ञा भवति, तदनन्तरम् अविभावश्च इति द्वितीयपादसूत्रेण नपुंसकलिङ्गे एवमेव रूपं सिद्धम् इति वदति. तदनन्तरम् अदि योगः भानु प्रत्यय अश्वो
नपुंसके वदतु भगिनि, अग्रे वदतु.
अश्वो नपुंसके प्रातिपदिकस्य नपुंसकलिङ्गे अजन्तस्य प्रातिपदिकस्य अश्व अच्छुवर्णस्य ह्रस्व स्यात्. तत् सूत्रेण अत्र भानु अति ह्रस्वभुकार एव, अतः न प्रवर्तनम् अपि किञ्चिदपि नास्ति. अधियोगः भानु एव
भानु एव आयाति. तदनन्तरं सुप्रत्ययानां योजनं, तदनन्तरं सुप्रत्ययस्य इदानीं प्रातिपदिकनिर्माणमेव कृतवती. अदि योग न बाणो इति प्रातिपदिकम् अस्ति, तस्मात् सुप्रतियोजनं
नपुंसकलिङ्गे सुप्स्थाने अम् आगच्छति.
न भगिनि, अत्र पश्यतु, नपुंसकलिङ्ग अस्ति सत्यम्, अधियोगबाणु, तदनन्तरं सुप्रत्ययोजनं, किमपि प्रत्ययं स्वीकरोतु, सु इति प्रत्ययं स्वीकरोतु, तदनन्तरम् अव्ययात् आप्सुपः इति सूत्रमस्ति खलु, तत्कारणेन किं भवति, सुप्रत्ययस्य लोपः भवति, लोपः भवति, अव्ययात् आप्सुपः इति सूत्रेण लोपः भवति. अधि भाणु इति रूपं
निष्पन्नं
भवति, निष्पन्नं भवति. सत्यं, समीचीनं भगिनि,
धन्यवादः.
गीता तिवारी भगिनि,
आं महोदय.
पितरि इति,
पितरि इति, पितरि तु सप्तम्यन्तं लौकिक वाक्यमस्ति. सप्तमी अस्ति चेत् प्रातिपदिक, तस्य प्रातिपदिक तु पितृ अस्ति. पितृ अनदन्त तु नास्ति.
इदानीम् अलौकिकविग्रहः किं किं भवति?
अलौकिक अलौकिक तु पितृयोगः नियोगः अधि, किमर्थं सप्तमी अस्ति चेत्, पितरि तु सप्तमी रूपम् अस्ति चेत् प्राकडारात् सूत्रेण समाससंज्ञा भवति. तदनन्तरं अव्ययीभावः इति सूत्रेण अव्ययीभावसमाससंज्ञा स्वीकरोति. इत्युक्ते पितृयोगः ञियोगः अधि पूर्णतया अव्ययीभावसमाससंज्ञा स्वीकरोति. तदनन्तरं कृत् तद्धितसमासाश्च सूत्रेण पूर्णतया इत्युक्ते पितृयोगः ञियोगः अधि समस्त प्रातिपदिकसंज्ञा प्राप्नोति आदेशः. तदनन्तरं सुपोधातुप्रातिपदिकयोः सूत्रेण ङि इति सुप् प्रत्यय अस्ति, तत् लुक् भवति. इत्युक्ते पितृयोगः अधि भवति. तदनन्तरं पदसंज्ञा भवति सुप्तिङन्तं पदम् इति सूत्रेण. यद्यपि यत्सुप् लुक् भवति, सुप् तु प्रभाव तु अस्ति चेत् सुप्तिङन्तं पदं कारणेन पदसंज्ञा भवति.
एकनिमिषं भगिनि, अत्र प्रथमं सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा अस्ति. किमर्थमित्युक्ते तत्र पितृयोगनी इति अस्ति खलु, तत्र प्रत्ययः पितृ इति प्रातिपदिकात् परम् अस्ति चेत् द्वयोः धनि पदसंज्ञा अस्ति. सुप्प्रत्ययः अस्ति इति कारणेन तत्र पदसंज्ञा अस्ति. तदनन्तरं सुप् प्रत्ययः लोपः जायते, लोपः कृते अपि तस्य पदसंज्ञा पितृ इत्यस्य पदसंज्ञा अस्ति इति एव अवगन्तव्यं. प्रथमं सुप्तिगन्धप्रदम् अस्ति, तदनन्तरं लोपः भवति.
अस्तु अस्तु, किन्तु लोप जाय चेत् यद्यपि लुप् भवति, तदनन्तरं पदसंज्ञा तु तिष्ठति इति उक्तवान्.
तिष्ठति एव, सत्यं तत् सत्यं.
धन्यवादः.
इदानीं
क्षम्यता.
पितृयोग अधि इति भवति.
पितृयोग अधि अग्रे अग्रिमासम्
धन्यवादः भगिनि. सरलभगिनी
इदानीं ओ अस्तु, धन्यवादः.
सरलभगिनी भवती वदति वा?
सरलभगिनी
नमस्कारः.
नमस्कारः.
अग्रे वदति वा?
यदा सुप्तिङ्गं पदं छात्रं तदनन्तरं सुपो धातुप्रातिपदिकयो अनेन लोप भवति सुप्रत्ययस्य. सो इदानीं पितृ अधि आगच्छति. इदानीं प्रथमानिर्दिष्टम् उपसर्जन इति सूत्रेण अधि उपसर्जनसंज्ञा भवति, कारण कि सूत्रे अव्ययम् इति प्रथमानिर्दिष्टम् अस्ति. सो अव्यय यत् अस्ति तत् अस्ति अधि अस्य तस्य उपसर्जन इति सूत्रेण उपसर्जन संज्ञा भूत्वा तस्य पूर्वनिपातः आगच्छति. सो अधि पितर् इति भवति इदानीम्. अधि पितर् इति भूत्वा तदनन्तरं समस्तपद इति अव्यय च इति समस्त संज्ञा आगच्छति. अव्यय इति समस्तसंज्ञा भूत्वा तदनन्तरम् अव्यश्च इति द्वितीयपादीसूत्रमस्ति, तस्य नपुंसकलिङ्गं संज्ञा आगच्छति. तदनन्तरं ह्रस्वो नपुंसकस्य ह्रस्वो किमपि सूत्रं ह्रस्वो नपुंसकस्य इति सूत्रेण
नपुंसके प्रातिपदिकस्य
मम पार्श्वे
किमर्थम् अहं वदामि, यदा वयं सूत्रं सम्यक् न उच्चारणं कुर्मः, स्मरणे न तिष्ठति चेत् तदा कार्यमपि विस्मरामः, तदा सूत्राणां सर्वदा सम्यक् भवति. कण्ठस्थी कण्ठस्थीकरणमपि करणीयम्.
महोदय, सरला भगिनी कार्ये अस्ति, तत्र पुस्तकं नास्ति.
तस्य ह्रस्व उत्तरपदस्य ह्रस्वं यत् अस्ति समस्तपदस्य, तत्र पूर्वं ह्रस्व इति अस्ति, इदानीं ह्रस्वप्रसक् लिङ्गस्य ह्रस्वं अजन्ताङ्गम् अस्ति, ह्रस्वत्वं भवति, किमपि परिवर्तनं भवति तथा न भवति इति एव तिष्ठति. सो अधिपितृ इति एव भवति. तदनन्तरं कारणकी अङ्गम् अनदन्तम् अस्ति, तस्य कोऽपि नूतनकार्यं न भवति. तदनन्तरं वयं सुप् प्रत्यय इति योजयामः, सु औजस् इति सूत्रेण, सु प्रत्यययोजनेन अधिपितर् योगसु, तदनन्तरम् अव्ययात् सुप् इति सूत्रेण सुप् लोप भवति. सो अधि पदं भवति अधिपित.
सत्यं, समीचीनं, समीचीनं, धन्यवादः. इदानीं शर्मिला भगिनि.
आं महोदय.
बुद्धौ इति,
बुद्धौ इति सप्तम्यान्तं बुद्धौ प्रातिपदिकमस्ति. बुद्धि अलौकिकविग्रहवाक्यं भवति. बुद्धि योगः नि योगः अधि. अत्र पूर्ण शब्दसमुदायस्य प्राक् कडारात् समासः इत्यनेन समाससंज्ञा भवति. अव्ययीभाव दीर्घं सूत्रमस्ति, अव्ययं विभक्ति इत्यनेन विभक्त्यार्थे इति अत्र वयम् अधि इति उपसर्गं उपयोगं कुर्मः. अव्ययीभावः सूत्रेण अव्ययीभावसंज्ञा भवति समस्य समस्तवर्ग शब्दसमूहस्य. बुद्धि योगः नि योगः अधि. पुनः कृत्तर्थितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. सुपो धातुप्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लोपः भवति. हरि हरिजन बुद्धि योगः अधि इति अवशिष्यते. परन्तु अत्र यद्यपि सुप् प्रत्ययस्य लोपः भवति, प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तस्य लक्षणं तिष्ठति. अतः बुद्धियोगः अधि सुप् तिङन्तं पदम् इत्यनेन पदसंज्ञा अपि अवशिष्यते. पुनः बुद्धियोगः अधि इत्यस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यनेन अव्ययम् अधि इति पूर्वनिपातः भवति.
धन्यवादः भगिनि. अत्र अहम् एतद् वक्तुम् इच्छामि. प्रथमं सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा अस्ति, तदनन्तरमेव विभक्तिप्रत्ययानां लोपः भवति. यद्यपि विभक्तिप्रत्ययानां लोपः भवति, तथापि तत्र पदसंज्ञा अवतिष्ठते इति एव अवगन्तव्यम्. प्रथमं सोपानं सुप्तिङन्तं पदम् इति न पदसंज्ञा. क्रम किञ्चित् भिन्नरीत्या वदामि. अस्तु, इदानीं बुद्धि अधि इति अस्ति. पुष्पा भगिनी भवती वदति वा अग्रे? बुद्धियोग अधि इति अस्ति.
बुद्धियोगः
इति अस्ति.
तत्र तद् अव्ययीभावश्च तद् कार्यं करोति न महोदय?
सत्यं बुद्धियोग अधि इति अस्ति
उपसर्जनं पूर्वं तद् तत् कार्य तद् कार्यं करोति तत् अधि पूर्वे आगच्छति अधि योगः बुद्धि न बुद्धि न अत्र परे अव्ययी भावश्च इत्यनेन अव्ययम् आगच्छति पूर्ण शब्दः पूर्ण अव्ययीभावसमासेन निर्मितस्य शब्दस्य अव्ययम् इति संज्ञा भवति अधि अधि बुद्धि इति परे अविभावश्च तत्तु नपुंसकलिङ्गम् आगच्छति अविभावसमासस्य लिङ्गं नपुंसकलिङ्गम् इति द्वितीयपाद द्वितीय सर्वे सर्वे समये अविभावश्च इत्यनेन नपुंसकलिङ्गम् आगच्छति अत्र ह्रस्वो नपुंसकलिङ्गे प्रातिपदिकस्य इत्यनेन अधि बुद्धि इति आगच्छति अत्र सुप्रत्ययः आगच्छति ज्ञाप् प्रातिपदिका इत्यनेन कार्यं करोति अत्र अव्ययः आपस्तुपः इति सूत्रेण अव्ययात्रस्य सुप्रत्ययस्य लोपः भवति अव्ययीभावस्य इत्यनेन सूत्रेण अधिबुद्धि इति अव्ययम् अस्ति इत्यस्य सुप्रत्ययस्य लोपः भवति
समस्तपदं निर्मितं भवति इदानीं धन्यवादः भगिनि समीचीनम् अग्रे अन्यम् उदाहरणं गवि इति गवि इति अहं अत्र करपत्रे नास्ति तु भगिनी गवि इति एव कृतवती अहं स्मरामि इदानीं गवि इति स्वीकुर्मः तस्य तत्र प्रक्रिया कथं भवति इति किञ्चित् परिशीलयामः सुमन् भगिनी भवती करोति वा
आं महोदय क्षम्यतां म्यूट् मध्ये आसम् अहं प्रयत्नं करोमि सम्पूर्णं वक्तव्यं वा अन्ते तत्र प्रक्रिया तु समान एव अन्ते एव किञ्चित् भिन्न भवति खलु तत्र
सत्यं भगिनि अस्माकं किं करणीयं पुनः कुर्मश्चेत् अस्माकं मस्तके तिष्ठति विस्मरणं न भवति क्रमेण कुर्मश्चेत् क्रमः सम्यक् तिष्ठति चेत्
इदानीं तु गवि अस्ति तत्र प्रातिपदिक अस्ति गो इदानीं तु गो योग प्रथम सोपाने तु अलौकिकविग्रहवाक्यम् अस्ति गो योग नि योग अधि तत्र समाससंज्ञा भवति प्रकडरा समासः सूत्रेण अनन्तरं अव्ययीभावसम समाससूत्रेण अव्ययीभावसमासः भवति. अनन्तरम् इदानीं सूत्र क्षम्यतां समासविधायकसूत्रम् अस्ति अव्ययं विभक्तिसमीप समृद्धिः व्यवृद्धिः अर्थाभाव अत्यय असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुपूर्व्य यौग्यपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु. एतत्तु सूत्रविधा समासविधायकसूत्रम् अस्ति इत्यनेन सूत्रेण अव्ययीसमास विधीयते. इदानीं भवति गो योगनी योग अधि कृत्तदितसमासः समासः च सूत्रेण प्रातिपदिकं संज्ञा प्राप्नोति. अनन्तरं हरि योगनी योग क्षम्यतां गो योगनी योग अधि सुप् सुपो धातुप्रतिपदिकयोः सूत्रेण सुप्रत्यय लुक् भवति. अनन्तरं गो योगनी योग अधि इदानीं तु तत्र सुप् प्रत्यय लुक् भवति अपि चेत् तत्र सुप्तिङन्तं पदम् इति पदम् आसीत् पदम् आसीत् अनन्तरं सुप् प्रत्यये लुक् लुक् इत्युक्ते लोपः अभवत्. किन्तु प्रत्ययलोपः प्रत्ययलक्षणम् इत्येन सूत्रेण पदसंज्ञा एव तिष्ठति. अनन्तरं अव्ययात् आप्सुपः इति क्षम्यताम् अव्य तत्र एकनिमिषम्
गो अधि इति अस्ति इदानीं रूपं गो अधि इति अस्ति
इदानीं आं सत्यं तत्र इदानीं तु गो योग अधि भवति प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण गो इति उपसर्जन संज्ञा प्राप्नोति गो योग क्षम्यता गो योग अधि अस्ति किन्तु प्रथमनिर्दिष्टं समास उपसर्जनं इति सूत्रेण अधि इति उपसर्जन संज्ञा प्राप्नोति. अनन्तरं
धन्यवादः भगिनि गृहे वदति वा.
धन्यवादः महोदय.
गोयोग अधि अवशिष्यते. तर्हि इदानीं निश्चयं करणीयं यत् प्रथमं किं कः शब्दः आगच्छति इति. अतः तस्य कृते प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण वयं निश्चयं कुर्मः. अत्र अव्ययमस्ति अधि, अतः अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव अत्यय सम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण समास अस्ति. परन्तु अत्र अव्ययमस्ति अव्ययम् अव्ययस्य उपसर्जनसंज्ञा भवति. अतः उपसर्जनं पूर्वम् इति सूत्रेण वयं जानीमः यत् यत् उपसर्जनमस्ति तद् एव पूर्वम् आगच्छति. अत्र अधि अव्ययमस्ति तद् उपसर्जनसंज्ञा भवति अतः तद् पूर्वम् आगच्छति. अतः अग्रिमे सोपाने अधियोग हरि अधियोग गो आगच्छति. अतः
अधियोग नदी अधियोग धन्यवादः ललिता भगिनी अधियोग गो इति अस्ति
प्रयत्नं करोमि अधियोग अधियोग गो इति अपि अविभावस्य इति सूत्रेण अव्ययम् इति संज्ञा भवति तदनन्तरं लिङ्गस्य निर्णयं करणीयं सम अव्ययी अधियोग गो इति लिङ्गं भवति नपुंसकलिङ्गं तत्कारणेन अधियोग गो इति भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य प्रातिपदिकम् अस्ति परन्तु अत्र प्रसक्ति नास्ति कारणम् इति गो इति शब्द अजन्तः नास्ति तदनन्तरं
गो इति तस्य अन्तः कः गो इति शब्दस्य अन्तः कः अन्ते कः वर्णः अस्ति गो इति पदस्य अधिगो इत्यस्य अन्ते किम् अस्ति
अन्ते अदन्तं नास्ति परन्तु
अजन्तम् अस्ति अजन्तम् अच्युवर्ण इत्युक्ते स्वरवर्णः अच्युवर्ण इत्युक्ते स्वरवर्णः अधिगो इत्युक्ते ओकारान्तः अस्ति वा स्वरवर्ण अस्ति वा
अस्ति अस्ति
अजन्तः अस्ति तु सः दीर्घः ओ इति दीर्घः अस्ति ओ इति दीर्घवर्णः अस्ति तस्य ह्रस्ववर्णः अस्ति वा
अस्ति
ओ इत्यस्य ह्रस्व उ ओ इति अस्ति वा ओ एव वर्णस्य दीर्घत्वम् अस्ति प्लुत्तत्वम् अस्ति ओ इति भवति ओ इति भवति तस्य ह्रस्व नास्ति ह्रस्वत्वं नास्ति इदानीं किं भवति ह्रस्वे प्रातिपदिकस्य इति सूत्रं कथं
प्रातिपदिकस्य सूत्रेण ह्रस्वत्वं भवति
कथं ह्रस्वत्वं भवति ह्रस्व कः इदानीम् ओकारः अस्ति खलु ओकारस्य केवलं दीर्घत्वम् अस्ति प्लुतत्वम् अस्ति तस्य ह्रस्वत्वं नास्ति इति यज्ञेन अत्र विशिष्टसूत्रं प्रवर्तते विशिष्टसूत्रमस्ति एच हिग् ह्रस्वादेशे इति सूत्रमस्ति तद् प्रथमाध्याये एव प्रथमाध्याये प्रथमपादे अष्टचत्वारिंशत्तमं सूत्रमस्ति अस्माकं पुस्तके यदा वयं दृष्टुम् इच्छामः तदा अष्टत्रिंशत् इति पुटसङ्ख्या स्वीकुर्वन्तु तत्र प्रथमस्तम्भे अन्ते अस्ति परिभाषसूत्राणि इति शीर्षकमस्ति तत्र तृतीयं सूत्रम् एत ह्रस्वादेशे इति अस्ति एतत् सूत्रं इग् ह्रस्वादेशे यत् क्षम्यताम् एचः इग् ह्रस्वादेशे ह्रस्व ग्रस्वादेशे अस्ति खलु ग्रस्वादेशे इति लिखितमस्ति तत्र किं कथं पठनीयम् एचः इक् ह्रस्वादेशे इति पठनीयम् ह्रस्वादेशे भवति चेत् एचः इति षष्ट्यन्तम् एचः स्थाने इक् वर्णः भवति इक् इति प्रथम अन्तमस्ति तद् इक् इति आदेशरूपेण आयाति एच् स्थाने इक् आदेशः भवति यदा ह्रस्वादेशसन्दर्भे एच स्थाने इक् आदेशः भवति इति इदं सूत्रं वदति इदानीम् अस्माकम् उदाहरणे अधिगो इति अस्ति खलु अधिगो
अधिगो
गो इति
अधिगो
गो अन्त ओकारः अस्ति ओकारः एच् मध्ये अस्ति वा एच् एच् प्रत्याहारे अस्ति वा एच् प्रत्याहारे के 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 सन्ति के के वर्णाः सन्ति एच् मध्ये
ए ओ ऐ औ
ए ओ ऐ औ इति अस्ति अत्र ओ इति अन्यतमः वर्णः अस्ति अन्यतमवर्णः अस्ति कारणेन इदम् एच् एच् स्थाने इग् इति आदेशः भवति एच् स्थाने तत्र यथा एन् सन्धि कुर्मः तत्र किं भवति एन् नास्ति
रिवर्स् अस्ति
ओकारस्य स्थाने ओकारः आगच्छति खलु तादृशम् इदानीम् ओकारस्थाने उकारः आगच्छति उकारस्थाने उकार आदेशः भवति उकारः आदेशरूपेण यदा ह्रस्व आदेशविधिः अस्ति खलु तस्मिन् सन्दर्भे इदानीं ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वविधिः अस्ति ह्रस्वविधिः अस्ति इति कारणेन ओकारस्य स्थाने उकार आदेशः भवति इदानीं रूपं किं भवति अधि गु इति भवति अधि इति भवति ओकारे उकार अधि गु इति भवति अग्रे वदतु भगिनि अग्रे
अधि गु इत्यस्य सुप्रत्ययस्य पुनः सुप्रत्ययस्य उत्पन्नम् अस्ति ज्ञात् प्रातिपदिकात् इति सूत्रेण एण्ड् सोजसमौट् षष्टाभ्याम् इति सूत्रेण अपि सुप्रातिपदिकस्य उत्पत्तिः भवति तदनन्तरम् अधिगु योगसु हव्या ताप् सुपः इति सूत्रेण तस्य लोपः भवति अधिगु इति समस्तपदं भवति सिद्धमस्ति
सत्यं
धन्यवादः
महोदय एकः प्रश्नः अस्ति तर्हि यदा ओक एच् अस्ति अन्ते तर्हि एच् अन्ततः ए ऐ ओ औ ओ औ इति तर्हि ह्रस्वो नपुंसके प्रातिपदिकस्य एतस्य प्रसक्तिः नास्ति एच् इग्रस्वादेशे अस्य प्रसक्तिः अस्ति एवं भवान् उक्तवान् वा द्वयोरपि चलति प्रथम आदेशः करणीयं तदनन्तरं ह्रस्वो नपुंसक एवं करणीयं वा
एकनिमिषं भगिनि तत्र पश्यतु ह्रस्व ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रं पश्यामश्चेत् तस्य सूत्रस्य अर्थं किं ह्रस्वः नपुंसके यदा नपुंसकलिङ्गे नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः आदेशः एतद् विधिसूत्र विध आदेशविधि करोति खलु अतः ह्रस्व आदेशः करोति एतत् सूत्रं विधायकसूत्रम् अस्ति ह्रस्व आदेशविधायकसूत्रम् अस्ति ह्रस्वो नपुंसके प्रातिपदिकस्य इति विधायकसूत्रम् अस्ति ह्रस्वः भवतु इति वदति नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवतु इति वदति एतत् सूत्रम् इदानीं कुत्र ह्रस्व आदेशः भवति अन्ते एव अलो अन्तस्य इति सूत्रेण अन्ते एव भवति अलो अन्तस्य इति सूत्रेण परिभाषासूत्रम् अस्ति तेन अन्ते एव भवति इदानीम् अहं ह्रस्वं कर्तुम् इच्छामि इदानीम् ई अस्ति चेत् तत्र ह्रस्व इकार कर्तुं शक्यते इ इति भवति उ अस्ति चेत् उ इति भवति इदानीम् ओ इति अस्ति ओ अस्ति, ओ अस्ति चेत् तस्य ह्रस्ववर्णः नास्ति, किं करणीयः इति संशयः उदेति. इदानीम् अत्र परिभाषासूत्रम् आयाति, एच हिङ्ह्रस्वादेशे. परिभाषासूत्रं वीदिसूत्रं नास्ति. परिभाषासूत्रं किं वदति, यत्र अनवस्था अस्ति, यत्र अनवस्था अस्ति तत्र व्यवस्था करोति, व्यवस्थां करोति, एवं करोतु, अत्र प्रश्नः अस्ति चेत् एवं करोतु इति एव वदति. ये अलवन्तस्य अपि एक परिभाषासूत्रं किं वदति, अलोन् ह्रस्व आदेशः आयति सम्पूर्ण स्थानिनि भवति वा आदेशः, न न सम्पूर्णस्थानिनि स्थानिनि आदेशः मा भवतु, अन्तिमवर्णे एव भवतु इति परिभाषासूत्रं वदति खलु. तादृशमेव एक ह्रस्वादेशे इति परिभाषासूत्रमस्ति. तत् किं वदति, यदा ह्रस्व आदेशः भवति तस्मिन् सन्दर्भे एच् प्रत्याहारे अन्यतमः वर्णः अन्ते अस्ति चेत् तदा तत्र इग् आदेशरूपेण स्थापयतु इति वदति. इदानीं ओकारः
प्रत्याहारे अस्ति खलु. आमां महोदय, एतत्तु अहमपि ज्ञातवती. अहं किं पृच्छामि, अस्य सूत्रस्य प्रसक्तिः अत्र अस्ति, एच् इग्र स्वादेशे अत्र तु अस्ति एव अस्य प्रसक्तिः. तदनन्तरम् उकारः भवति न, उकारस्य आदेशः भवति, उ आदेशः भवति. तदनन्तरं पुनः रस्मो नपुंसके प्रातिपदिकस्य सूत्रस्य प्रसक्तिः पुनः करणीयं वा न करणीयम् एवम् अहं पृच्छामि.
एकनिमिषम्, ये ह्रस्वनपुंसके प्रातिपदिकस्य सूत्रेण एव उकार आदेशः अभवत् खलु, पुनः
एकनिमिषं प्लीस्. एच् इग्र स्वादेशे अनेन सूत्रेण उकार भवति न वा?
तत्तु विधिसूत्रं नास्ति.
एकनिमिषं भगिनि, अहं वदामि, ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रेण एव विधि ह्रस्वविधिः भवति, ह्रस्वविधिः भवति. ह्रस्वविधिः किं किं करणीयम् इति एव ह्रस्व एच इग्रस्वादेशे वदति. तद् परिभाषासूत्रमस्ति, तद् विधिसूत्रं नास्ति. अवगच्छति वा? विधिसूत्रमेव आदेशं करोति, परिभाषासूत्रं कथं करणीयम् इत्येव वदति. पुनः किमर्थम् अर्थपुस्तके प्रातिपदिकस्य सूत्रस्य प्रसक्तिः भवति? एकवारं तस्य कार्यम् अभवत् खलु.
Bhagini, in order to do the Rasva Napumsaka Linki Pradipadikasya, you have to figure out which is the Rasva to do the Adesha, so, or to come in the place of the Okara. For that, you look at the Paribhasa Sutram. That tells you that in place of O, you get U. So, now you do the Vidhi Sutram and you do U Adeshaha in place of O.
Yeah, that I understood. परन्तु गतसप्ताहेन विद्याभगिनी एवमपि उक्तवती न, यदि ह्रस्व अस्ति तर्हि पुनः यदि सूत्रस्य प्रसक्तिः अस्ति तर्हि पुनः तद् पुनः करणीयं, परिवर्तनं नास्ति, परन्तु तस्य प्रसक्तिः अस्ति तर्हि तद् लिखितम् अस्ति एवम् अतः अहं पृच्छामि पुनः.
बट् हियर् भगिनी अत्र ह्रस्व नास्ति, अत्र ओ दीर्घ अस्ति खलु. सो
तदनन्तरम् अहं पृच्छामि, कृत्वा
इदानीं तु वयं दृष्टवन्तः खलु, अधि नदी अस्ति चेत् तत्र अधि नदी भवति, अनन्तरं एतत् सूत्रं कार्यं करोति, अधि नदी भवति. पुनः पुनः किमर्थं करणीयम्? अधि नदी, अधि नदी भवति, अभवत् कार्यम्. तथैव अत्र अधिगो अस्ति, अधिगो अधिगु भवति, अभवत् कार्यम्.
समीचीनम् अत्र भवत्याः प्रश्नस्य प्रसक्तिः कत्र कुत्र भवति इत्युक्ते अधिबुद्धि इति उदाहरणं दृष्टवन्तः खलु तत्र बुद्धिः इति ह्रस्व अस्ति ह्रस्व अस्ति चेदपि ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रं प्रवर्तते तत्र किमपि परिवर्तनं न भवति तावदेव तत्र एव भवती यदा उक्तवती तस्य प्रसक्तिः अस्ति वा इति प्रश्नस्य प्रश्न उदेति अस्मिन् सन्दर्भे ह्रस्व नपुंसके प्रातिपदिकस्य सूत्रेण एव ह्रस्वविधिः अभवत् पुनः किमर्थं ह्रस्वनदी ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रम् अस्तु इदानीम् अत्र स्थगयामः सर्वेभ्यः धन्यवादः निवेदयामि
सहायं
कृतवन्तः
धन्यवादः महोदय
धन्यवादः श्रीराम महोदय.